प्रसीद मम भास्कर दिवाकर नमस्तुभ्यं दिवाकर नमस्तुभ्यं प्रभा सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजं सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजं श्वेतपद्मधरं देवं श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहं
तं सूर्यं प्रणमाम्यहं सूर्यं प्रणमाम्यहं सूर्यं प्रणमाम्यहं तं सूर्यं प्रणमाम्यहं
लोहितं सर्वलोकपितामहं महापापहरं देवं महापापहरं देवं तं सूर्यं प्रणमाम्यहं
तं सूर्यं प्रणमाम्यहं तं सूर्यं
त्रैगुण्यञ्च महाशूरं ब्रह्मविष्णुमहेश्वरं त्रैगुण्यञ्च महाशूरं ब्रह्मविष्णुमहेश्वरं महापापहरं देवं महापापहरं देवं तं सूर्यं प्रणमाम्यहं
तं सूर्यं प्रणमाम्यहं तं सूर्यं प्रणमाम्यहं तं सूर्यं प्रणमाम्यहं तं सूर्यं प्रणमाम्यहं
गृहीतं वायुमाकाशमेव च प्रभुञ्च सर्वलोकानां प्रभुञ्च सर्वलोकानां तं सूर्यं प्रणमाम्यहं
तं सूर्यं प्रणमाम्यहं तं सूर्यं
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितं बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितं एकचक्रधरं देवं एकचक्रधरं देवं तं सूर्यं सूर्यं जगत्कर्तारं तं सूर्यं जगत्कर्तारं महातेजप्रदीपनं महापापहरं देवं महापापहरं देवं तं सूर्यं प्रण जगतान्नाथं ज्ञानविज्ञानमोक्षदं तं सूर्यं जगतान्नाथं ज्ञानविज्ञानमोक्षदं महापापहरं देवं महा